गणानां त्वा गणपतिगं भवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नोतिभिस्सेदसादनम् प्रणो देवे सरस्वते वाजेभिर्वाजिनीवते धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवतो तैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवं बभूवते धनुः शिवाचरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजागजेः यामिषुम् गिरिशम् तहस्तेऽभिभक्त्यस्तभे शिवाङ्गिरित्रताम् कुरु माघिगुंसिः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमि जगत यक्ष्मगुं सुमना असत् अद्य वोच ददे वक्ता प्रथमो देव्योऽभिषक अयेगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असव्यस्ताम्रो अरुण उत बभ्रत्सु मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रिताः सहस्रशो वैशागुम् एड एमहे असव्यो वसत्पतिनीलग्रेपो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् दृष्ट्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषेके अधोगे अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः प्रमुञ्ज धन्वनस्त्वमुभयोर्रात्रियोर्ज्याम् याच्च ते हस्त इषव पराता भगवो वपा अवतत्य धनुस्त्वगुं सहस्राक्षशते सुधे निषेद्य शल्याणाम् मुखा शिवो न सुमना भव विज्यम् धनु कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरत्य निषङ्गतिः या ते हेतुर्मीदुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वदस्त्वमयत्मया परिभुज नमस्ते अस्वायुधायानाथताय दृष्टवेके उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् गृणक्तु विश्वतः अधो यगिषुदिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् निश्चेच्छराय महादेवाय त्र्यम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय श्रीमते पदेनां पदये नमो नमो बब्लुषाय व्याधिनेन्नानां पदये नमो नमो हरिकेशायोपवेतिने पुष्टाणां पदये नमो नमो भवत्यहेत्ये जगतां पदये नमो नमो रुद्राय ततापिने क्षेत्राणाम् पदये नमो नमः सूताय हन्त्याय वनानाम् पदये नमो नमो लोकिताय सपतये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पदये नमो नमो भुवन्तये वारिव स्मृतायौषधेनाम् पदये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पदये नमो नमः कृष्णवेताय धावते सत्त्वनाम् पदये नमः नमः सगमानाय निव्याधिन आव्याधिनीनाम् पदये नमो नमः ककुभाग्य निषङ्गिणे गे स्थेनानाम् पदये नमो नमो निषङ्गिणगिषुधिमते तस्कराणाम् पदये नमो नमो वञ्जते परिवञ्जते सायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमस्नृकाविभ्यो जिगागुंसद्योमश्नताम् पदये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यो प्रक्रन्दानाम् पदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पदये नमो नम गिषुमद्भ्यो धन्वाविभ्य च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आगच्छद्भ्यो निसृजद्भ्यश्च वो नमो नमोऽस्य विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम सभाभ्यत्सभापदिभ्यश्च वो नमो नमो अश्वेभ्योच्चपदिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यगुंहतेभ्यश्च वो नमो नमो गृच्छेभ्यो गृच्छपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यश्चेनानिभ्यश्च वो नमो नमः क्षत्रभ्यश्च ಚಂಗ್ರಹೇತೃಭ್ಯಚ ವೋ ನಮೋ ನಮಃ ತಕ್ಷದ್ಯೋರಥಕಾರೇಭ್ಯಚ ವೋ ನಮೋ ನಮಃ ಕುರಾಲೇಭ್ಯ ಕನ್ಮಾರೇಭ್ಯಚ ವೋ ನಮೋ ನಮಃ ಕುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಚ ವೋ ನಮೋ ನಮಗೆ ಶುಕ್ರಭ್ಯೋ ಧನ್ವಕೃಭ್ಯಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಚ ವೋ ನಮೋ ನಮಃ ಚ್ವಭ್ಯಚ್ವಪತಿಭ್ಯಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಸರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ನೀದುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಭಾಗ್ಯ ಚ ನಮಃ ಆಶವೇ ಚಿರಾಗ್ಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಗ್ಯ ಚ ಶೇಭ್ಯಾಗ್ಯ ಚ ನಮಃ ಓರ್ಮ್ಯಾಗ್ಯ ಚ ವತ್ಸನ್ಯಾಗ್ಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಗ್ಯ ಚ ದ್ವೇಪ್ಯಾಗ್ಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಗ್ಯ ಚ ಕನಿಷ್ಠಾಗ್ಯ ಚ ನಮಃ ಪೂರ್ವಜಾಗ್ಯ ಚ ಪರಜಾಗ್ಯ ಚ ನಮೋ ಮಧ್ಯಮಾಗ್ಯ ಚ ಪಗಲ್ಭಾಗ್ಯ ಚ ನಮೋ ಜಗನ್ಯಾಗ್ಯ ಚ ಬುದ್ಧಿಯಾಗ್ಯ ಚ ನಮಃ ಸೋಭ್ಯಾಗ್ಯ ಚ ಪ್ರತಿಸರ್ಯಾಗ್ಯ ಚ ನಮೋ ಯಾಮ್ಯಾಗ್ಯ ಚ ಕ್ಷೇಮ್ಯಾಗ್ಯ ಚ ನಮಃ ಉರ್ವರ್ಯಾಗ್ಯ ಚ ಕಲ್ಯಾಗ್ಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಗ್ಯ ಚ ವಸಾನ್ಯಾಗ್ಯ ಚ ನಮೋ ವನ್ಯಾಗ್ಯ ಚ ಕಕ್ಷ್ಯಾಗ್ಯ ಚ ನಮಃ ಶ್ರವಾಗ್ಯ ಚ ಪ್ರತಿಶ್ರವಾಗ್ಯ ಚ ನಮಃ ಆಶುಷೇಣಾಗ್ಯ
ಚಾಶುರತಾಯ ಚ
ನಮಃ ಶೂರಾಗ್ಯ ಚ ವಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ವಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಗ್ಯ ಚ ಶ್ರುತಸೇನಾಗ್ಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಗ್ಯ ಚ ಗಣನ್ಯಾಗ್ಯ ಚ ನಮೋ ಧೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಗ್ಯ ಚ ನಮೋ ದೂತಾಗ್ಯ ಚ ಪ್ರಹಿತಾಗ್ಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷು ಧಿಮತೇ ಚ ನಮಃ ತೀಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಗ್ಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಗ್ಯ ಚ ಪಥ್ಯಾಗ್ಯ ಚ ನಮಃ ಕಾಟ್ಯಾಗ್ಯ ಚ ನೀಪ್ಯಾಗ್ಯ ಚ ನಮಃ ಸೋದ್ಯಾಗ್ಯ ಚ ಸರಸ್ ಸ್ಯಾಗ್ಯ ಚ ನಮೋ ನಾದ್ಯಾಗ್ಯ ಚ ವೈಶಂತಾಗ್ಯ ಚ ನಮಃ ಕೋಪ್ಯಾಗ್ಯ ಚ ಪಟ್ಯಾಗ್ಯ ಚ ನಮೋ ವಶ್ಯಾಗ್ಯ ಚ ಪಟ್ಯಾಗ್ಯ ಚ ನಮೋ ಮೇಘ್ಯಾಗ್ಯ ಚ ವಿದ್ಯುತ್ಯಾಗ್ಯ ಚ ನಮಃ ಈದ್ರಿಯಾಗ್ಯ ಚ ತಪ್ಯಾಗ್ಯ ಚ ನಮೋ ವಾತ್ಯಾಗ್ಯ ಚ ರೇಷ್ಮಿಯಾಗ್ಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಗ್ಯ ಚ ವಾತ್ತುಭಾಗ್ಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಗ್ಯ ಚ ರುದ್ರಾಗ್ಯ ಚ ನಮಃ ಸಾಮ್ರಾಗ್ಯ ಚ ಋಣಾಗ್ಯ ಚ ನಮಃ ಶಂಗಾಗ್ಯ ಚ ಪಶುಪತಗೇ ಚ ನಮಃ ಉಗ್ರಾಗ್ಯ ಚ ಭೀಮಾಗ್ಯ ಚ ನಮೋ ಅಗ್ರೇ ಬಧಾಗ್ಯ ಚ ದೂರೇ ಬಧಾಗ್ಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಗ್ಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮಃ ಶಂಕರಾಗ್ಯ ಚ ಮಯತ್ಕರಾಗ್ಯ ಚ ನಮಃ ಶಿವಾಗ್ಯ ಚ ಶಿವತರಾಗ್ಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಗ್ಯ ಚ ಕೋರ್ಯಾಗ್ಯ ಚ ನಮಃ పార్యాగ్య చ పార్యాగ్య చ నమః ప్రతరణాగ్య చోత్తరణాగ్య చ నమః ఆతార్యాగ్య చ లాద్యాగ్య చ నమః షట్యాగ్య చ భేన్యాగ్య చ నమః త్రికత్యాగ్య చ ప్రవాక్యాగ్య చ నమగిరణ్యాగ్య చ ప్రపథ్యాగ్య చ నమః కిగుంశిలాగ్య చ క్షగణాగ్య చ నమః కపర్దినే చ పులస్తగే చ నమో గోక్ష్యాగ్య చ గృహ్యాగ్య చ నమః తల్ప్యాగ్య చ గేహ్యాగ్య చ నమః కాట్యాగ్య చ గహ్వరేష్ఠాగ్య చ నమో హృదయాగ్య చ నివేష్ప్యాగ్య చ నమః పాగుంసవ్యాగ్య చ రజస్యాగ్య చ నమః శుష్క్యాగ్య చ హరిత్యాగ్య చ నమో లోప్యాగ్య చోలప్యాగ్య చ నమః ఊర్వ్యాగ్య చ సూర్మ్యాగ్య చ నమః పర్ణ్యాగ్య చ పర్ణశద్యాగ్య చ నమో పగురమాణాగ్య చ విఘ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వత్కిరికేభ్యో దేవానాగం హృదగేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్మత్కేభ్యో నమః నిర్హతేభ్యో నమః ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహిత ఏషాం పురుషాణాం ఏషాం పశూనాం మాభేర్మా రోమోగేషాం కించన మమత్ యాతే రుద్ర శివా తను శివ విశ్వాక భేషజీ శివా రుద్రస్య భేషజీ తయా నో మృడ జీవసేకే ఇమాగుం రుద్రాయ తవసేక వర్దినేకే క్షయద్వేరాయ ప్రభరామహే మతిం యథా నశ్యమస ద్వివదే చతుష్పదే విశ్వం పుష్టం గ్రామి అస్మిన్ననాతురం మృడానో రుద్రోతనో మయస్కృతి క్షయద్వేరాగ్య నమసా విధేమతే యచ్చం చయోచ్చమనురాగ్య జే పితా తదశ్యామతవ రుద్ర ప్రణీతో మానో మహాంతముదమానో అర్భగం మాన ఉక్షంతముదమాన ఉక్షితం మానో వధే పితరం మోత మాతరం ప్రియామాన తనువో రుద్రరీరిషః మానస్తోకే తనగే మాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామిదో వతేర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్నముత పూరుషగ్నే క్షయద్వీరాయసుం నమస్మేతే అస్తో రక్షాజనో అధిజదేవ బ్రూహ్యతాజన శర్మ యచ్చ ద్వివరుహాః సుహి శ్రుతం గర్త సదం యువానం మృగన్న భీమముపహత్తుముగ్రం మృడా జరిద్రే రుద్రస్తవానో అన్యందే అస్మన్ నివపంతు సేనా పరిణో రుద్రస్య హేతబ్రణక్తు పరిత్వేషస్య దుర్మతిరఘాయో అవస్థిరా మగవద్వ్యస్తను స్వమీద్వస్తోకాయతనయాగ్య మృడయా నీడుష్టమ శివతమ శివో న శమనాభవ పరమే వృక్ష ఆయుధన్ నిధాయ కృత్యం వసా నమాచర వినాగ విభ్రతాగహే వికిరిత విలోకిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుంహేతయోన్యమస్మన్నివపంతు సహస్రాణి సహస్రదా వాకువోత్తవ హేతయః तासामी चानो भगवपराचेनामुखाग्रते सहस्राणि सहस्रशो गेरुद्रादिभूम्या तेषागुं सहस्रयो जने वचन्मानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्ये भवा अधे नीलग्रीवा क्षितिगण्ढा चर्वा अधः क्षमाचरा नीलग्रीवा क्षितिगण्ढादिवगुं रुद्रा उपश्रिता ये वृक्षेषु सत्पिञ्जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयोभिषिका सक्कपर्दिनः ये अन्येषु विभिद्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षय ऐलप्रदाग्यव्युतः ये तीर्थाणि प्रजरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुन्तश्च दिशो रुद्रावितस्तिरे तेषागुं सहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिविगे शावन्न मातो वरुषमिषव तेभ्यो दश प्राचेर्दश दक्षिणादश प्रतेचेर्दशोदे चेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् जिष्मो यच्च नोद्वेष्टिदम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नव्यो अप्सुय ओषधेषु यो रुद्रो विद्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवेत् स्वाहा मृत्यवेत् स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यः स्वृषस्तु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे च यो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ चञ्च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौ मनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे ग्यन्था च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्म च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सूषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अधो माताधो पिता अधो स्थूरा अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण् भण् रसे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रशं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षाम् व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तक्षेक्षाध्यायः सघनौ यजः सघनौ ब्रह्मवर्चसम् अधातः सगुंहिताय उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुंहितागित्या चक्षते अधादिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अधादिज्योतिषम् अग्निपूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अधादिविद्यम् आचार्यपूर्वरूपम् अन्तेवास्युत्तररूपम् विद्या सन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अधाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अधाध्यात्मम् अधराधनुपूर्वरूपम् उत्तराधनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः यगेवमेता महासगुंहिता व्याख्याता वेद संधेयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता सम्भवूव समेन्द्रो मेधयात् स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणा चिरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सह स्वाहाकः आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सा निःस्वाहा श्रेयान्वस्य सोऽसा निःस्वाहा तन्त्वाभगप्रविशा निःस्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रजाघे निभगाहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ते यथा मासाकहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतत्स्वाहा प्रतिवेशोऽसि प्रमाबाहि प्रमापद्यस्व भूर्भुवः सुवरिति वागेतास्तिस्रो व्याहृदयः तासामुहस्मैताम् चतुर्थीम् माहाचमस्य प्रवेदयते महगिते तद्ब्रह्मा स आत्मा अङ्गान्यन्ना देवताः भूरिति वा अयम् लोकः भुवगित्यन्तरिक्षम् सुभरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुवगिति वायुः सुभरित्यादित्यः महगिति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा ऋचः भुवगिति सामानि सुभरिति यजोगुंषि महगिति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुवगित्यपानः सुभरितिर्व्यानः महगित्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावागेताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृदयः तायो वेद स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमा वहन्ते సయగేషోంతర హృదయ ఆకాశః తస్మిన్ నయం పురుషో మనోమయః అమృతో హిరణ్మయః అంతరేణ తాలుకే య ఏషస్తన ఇవావలంబతే సేంద్రయోనిః యత్రాసౌ కేశాంతోవ్యవర్తతే వ్యపోగ్యశీర్షకపాలే భూరిత్యగ్నౌ ప్రతితిష్ఠతే భువగితి వాయో సువరిత్యాదిత్యే మహగితి బ్రహ్మణి ఆప్నోతి స్వారాజ్యం ఆప్నోతి మనసస్పతిం వాక్పతిశ్చక్షుష్పతిః శ్రోత్రపతిర్విజ్ఞానపతిః ఏతత్తతో భవతి ఆకాశశరీరం బ్రహ్మా సత్యాత్మ ప్రాణారామం మన ఆనందం శాంతి సమృద్ధమమృతం ఇది ప్రాచీన యోగ్యోపాస్వ పృథివ్యంతరిక్షం ద్యోర్దిశో వాంతర దిశాః అగ్నిర్వాయురాదిత్యశ్చంద్రమా నక్షత్రాణి ఆప ఓషధయో వనస్పతయ ఆకాశ ఆత్మా ఇత్యధిభూతం అధాధ్యాత్మం ప్రాణో వ్యానోపాన ఉదాన సమానః చక్షుశ్రోత్రం మనోవాక్త్వక్ చర్మ భాగం దగ్గుస్నావాస్థిమజ్జ ఏతదతివిధాయ ఋషిరవోచత్ పాంక్తం వా ఇదగుం సర్వం పాంక్తేనైవ పాంతగ్గస్పృణోతేతే ఓమితి బ్రహ్మా ఓమితేదగుం సర్వం ఓమిత్యేతదనుకృతిహస్మవా అప్యోశ్రావయేత్యాశ్రావయంతే ఓమితి సామాని గాయంతే ఓగుం సోమితి శస్త్రాణి శగుం సందే ఓమిత్యద్భర్యు ప్రతిగరం ప్రతిగృహాతే ఓమితి బ్రహ్మా ప్రసౌదే ఓమిత్యగ్నిహోత్రమనుజానాదే ఓమితి బ్రాహ్మణ ప్రవక్షన్నాహ బ్రహ్మోపాప్నవానీతే బ్రహ్మైవోపాప్నోతే ఋతంజ స్వాధ్యాయ ప్రవచనే చ సత్యంజ స్వాధ్యాయ ప్రవచనే చ తపశ్చ స్వాధ్యాయ ప్రవచనే చ దమశ్చ స్వాధ్యాయ ప్రవచనే చ శమశ్చ స్వాధ్యాయ ప్రవచనే చ అగ్నయశ్చ స్వాధ్యాయ ప్రవచనే చ అగ్నిహోత్రం చ స్వాధ్యాయ ప్రవచనే చ అధిధయశ్చ స్వాధ్యాయ ప్రవచనే చ మానుషం చ స్వాధ్యాయ ప్రవచనే చ ప్రజాజ స్వాధ్యాయ ప్రవచనే చ ప్రజనశ్చ స్వాధ్యాయ ప్రవచనే చ ప్రజాతిశ్చ స్వాధ్యాయ ప్రవచనే చ సత్యమితి సత్యవచారాధేతరః తప ఇతి తపో నిత్య పౌరుసృష్టిః స్వాధ్యాయ ప్రవచనే కే వేతి నాగో మౌద్గల్యః తద్ధి తపస్తద్ధి తపః అహం వృక్షస్య రేరివ కీర్తి పృష్ఠం గిరేరివ ऊर्ध्वपवित्रो वाजिनेव स्वमृतमस्मि द्रविणगुं सवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्गोर्वेदानुवचनम् वेदमनोच्याचार्यो वन्देवासिनमनुशास्ते सत्यं वद धर्मं चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्से सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भोत्यैन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्मागगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि ये के चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् ह्रिया देयम् भिया देयम् संविदा देयम् अधयति ते कर्म विचिकित्सा वा वृत्त विचिकित्सा वा स्याद् ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेधाः अधाभ्याख्यातेषु ये तत्र ब्राह्मणा सम्मर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेधाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रश्च वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावेद् तद्वक्तारमावेत् आवेद् माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु।
ॐ शान्ति शान्ति शान्ति।